ఏనాక్షరసమాం న్యాయమధిగమ్య మహేశ్వరాత్ కృత్స్నం వ్యాకరణం ప్రోక్తం తస్మై పాణినయే నమః. వాక్యకారం వరరుచిం భాష్యకారం పతంజలిం పాణినిం సూత్రకారం చ ప్రణతోస్మి మునిత్రయం. మునిత్రయం నమస్కృత్య తదుక్తీః పరిభావ్య చ వైయాకరణ సిద్ధాంత కౌముదీయం విరచ్యతే. సర్వేభ్యో నమస్కారాః. సిద్ధాంత కౌముద్యాః అజంత స్త్రీలింగ ప్రకరణే ప్రథమః పాఠః. మే మాసస్య షోడశ దినాంకః. దే హావ్ బీన్ ఎ లాంగ్ బ్రేక్ ఇన్ క్లాసెస్ బికాస్ ఆఫ్ సమ్ ప్రాబ్లమ్స్ విత్ మై ఇంటర్నెట్ కనెక్షన్. ఐమ్ వెరీ సారీ ఫర్ దట్. బట్ మై టీచర్ యూస్ టు సే వాట్ షీ జనరలీ స్టార్ట్స్ హర్ క్లాసెస్ ఆల్సో ఇన్ జూన్ ఎవ్రీ ఇయర్ అండ్ షీ కండక్ట్స్ క్లాసెస్ టిల్ మార్చ్ అండ్ ఎవ్రీ ఇయర్ షీ కమ్స్ అప్ టిల్ అజంత పుల్లింగ ప్రకరణం. So usually she says that somehow after Ajanta Pullinga Prakaranam the classes get a break and then she can start only in the next year. So some such sort also happened here, even if it was not intended, there was a break. So anyway, I hope people have been got time to revise the previous things, so we can now move on. Ajanta Strilinga Prakaranam Siddhanta Kaumudyaha Kramaha సర్వై జ్ఞాయతే ఇదానీ. ఆదౌ సంజ్ఞా ప్రకరణం శాస్త్రసంబద్ధానాం సంజ్ఞానాం పరిచయ ఆసీత్. అనంతరం పరిభాషా ప్రకరణే తథైవ శాస్త్రోపయోగినీనాం పరిభాషాణాం పరిచయ. సంజ్ఞా పరిభాషే జ్ఞాపే తతః కిం పంచసంధి ప్రకరణం. సో వి టోల్డ్ హౌ టు సాల్వ్ సంధీస్ విచ్ ఇస్ నీడెడ్ ఫర్ ఎనీ other operation. Sandhis are the basic of all other operations in Vyakarana. So once we finished Sandhi Prakarana, he goes on to the Shabda Prakarana, which is divided into 6 parts. Shatsu Bhageshu Sarvepi Subantaha Artha Supratyanam Prakaranam Shatsu Bhageshu Samapyate. So Tatra Adau Ajantaha Shabdaha Halanta Shabdaha Iti Bhedaha Punaha Ajanteshu Pullingaha Srilingaha Napumsakalingaha తథైవ హలంతేషు పుల్లింగా స్త్రీలింగా నపుంసకలింగా ఇతి భేద. ఏం షట్ ప్రకరణాన్ని సంతి. ప్రథమం ప్రకరణం అర్థాత్ అజంత పుల్లింగ ప్రకరణం సమాప్తం. ఇదానీం అజంత స్త్రీలింగ ప్రకరణం ఆరభ్యతే. అదౌ ఆకారాంతా స్త్రీలింగా. అకారాంతా స్త్రీలింగా నంతి. దెర్ ఆర్ నో అకారాంత స్త్రీలింగాస్ ఇన్ సంస్కృత్. దెర్ ఇస్ నో ఎక్సెప్షన్ అట్ ఆల్. For example, in pullinga, even we say generally it is akaranta, we also have akaranta pullingas, ikaranta pullingas, etc. But in strilinga, there are no hraswa akarantaha. Okay? Strilingeshu hraswa akarantaha na santyeva. Santi sarvepi akarantaha bhavanti. Punascha akarantaha sarvepi abantaha iti uchyante. Aap nama trayanam pratyanam sangraha. టాప్ డాప్ చాప్ ఇది త్రయ స్త్రీ ప్రత్యయా సంతి. దర్ ఆర్ త్రీ ప్రత్యయాస్ విచ్ ఐ మీన్ స్త్రీ ప్రత్యయాస్ ఆర్ దోస్ ప్రత్యయాస్ విచ్ ఆర్ యూస్ టు ఇండికేట్ స్త్రీలింగ. సో వీల్ సీ ద స్త్రీ ప్రత్యయ ఆఫ్టర్ ద శబ్ద ప్రకరణం. సో దే ఆర్ ప్రత్యయాస్ విచ్ ఆర్ యాడెడ్ ఆన్ టు ప్రాతిపదికాస్ టు ఇండికేట్ దేర్ స్త్రీత్వ. ఫర్ ఎగ్జాంపుల్ అజహ ఇత్యస్తి పుల్లింగే. అజ ఇది అకారాంతం ప్రాతిపదికం. తస్య టాప్ ప్రత్యయ కృతే అజా ఇది స్త్రీలింగే భవతి. ఏమేవ సర్వత్ర ఇదానీం వ్యాఘ్ర ఇత్యస్తి. వ్యాఘ్ర ఇది అకారాంతం. తస్య స్త్రీ ప్రత్యయ ఙీప్ ఇది స్త్రీ ప్రత్యయ కృతే అథవా ఙీష్ ఇది స్త్రీ ప్రత్యయ కృతే వ్యాఘ్రీ ఇది భవతి స్త్రీలింగే. సో wherever there are pairs of words, pullinga and strilinga, we generally have a pratyaya to indicate that strita, which is called a stri pratyaya. Now, for all akarantas, you have a corresponding, there are three stri pratyayas. There are tap, dap and chap. All of them in common have that aap. That is why they are called aap, and any word ending in aap is called abanta. Stri pratyayantani, artha tap, dap, chap, ityetadantani padani, ఆబంతాని ఇది కథ్యంతే. సో ఆకారాంతా సర్వే అపి ఆబంతా. సూత్రే అపి ఆకారాంతస్య కిమపి కార్యం న విధీయతే. ఆబంతానామేవ కార్యాణి విధీయంతే. ಆದು ರಮಾ ಶಬ್ದ ಸ್ವೀಕ್ರಿಯತೆ. ಆಕಾರಾಂತಃ ಸ್ತ್ರೀಲಿಂಗ ರಮಾ ಶಬ್ದ. ಕಥಂ ಶಬ್ದಸ್ಯ ನಿಷ್ಪತ್ತಿ ಚೇತ್ ರಮತೆ ಇತಿ ರಮಾ, ರಮತೆ ರಮು ಕ್ರೀಡಾಯಾಂ ಇತಿ ಧಾತುಃ, ಸಾ ಯಾ ಕ್ರೀಡತಿ ಸಾ ರಮಾ ಇತಿ ಲಕ್ಷ್ಮ್ಯಾಃ ಪರ್ಯಾಯಂ. ರಮು ಕ್ರೀಡಾಯಾಂ ಧಾತುಃ ಕರ್ತರಿ ಅಚ್ ಪ್ರತ್ಯಯಃ ಕ್ರಿಯತೆ. ರಮು ಅ ಇತ್ಯಸ್ತಿ, ರಮ ಇತಿ ಅಕಾರಾಂತಂ, ತತಃ ಅಕಾರಾಂತತ್ವಾತ್ ಅಜಾದ್ಯತಷ್ಟಾಪ್ ಇತಿ ಸೂತ್ರೇಣ ಟಾಪ್ ಪ್ರತ್ಯಯಃ ಕ್ರಿಯತೆ. ಅಜ ಸಾರಿ ರಮ ಅ ಸವರ್ಣದೀರ್ಘೆ ರಮಾ ಇತಿ ಆಕಾರಾಂತಂ ಪ್ರಾತಿಪದಿಕಂ. ಇದಾನೀಂ ಅಸ್ಯ ಪ್ರಾತಿಪದಿಕತ್ವಂ ಕಥಂ ಇತಿ ಪ್ರಶ್ನಃ. ಪ್ರಾತಿಪದಿಕತ್ವ ವಿಧಾಯಕಂ ಸೂತ್ರಂ ಕಿಂ ಅಥವಾ ಸೂತ್ರಾಣಿ ಕಾನಿ. ಪ್ರಾತಿಪದಿಕ ಸಂಜ್ಞಾ ವಿಧಾಯಕಾನಿ ಸೂತ್ರಾಣಿ ಕಾನಿ. ವಾಚ್ ಆರ್ ದ ಸೂತ್ರಸ್ ಬೈ ವಿಚ್ ವಿ ಗೆಟ್ ಪ್ರಾತಿಪದಿಕ ಸಂಜ್ಞಾ? People, that is the sutra which gives the pratyayas, supratyayas. Arthava radhatur apratyaya pratipadikam ityekam sutram. No, that is different. No, that is what. So you have arthava radhatur apratyaya pratipadikam and krittadhita samasascha. Okay, there are two sutras which give pratipadika samya. Arthavaradhatra pratyah pratipadikam tatha kruttadhita samasascha iti sutrabhyam pratipadika samya vidhiyate. Kintu atra ubhabhyam sutrabhyam pratipadikatvam na bhavati. Kuto na bhavati? Arthavat adhatuhu apratyah ityuchyate. Dhatum pratyayam pratyayantam chavarjayitva arthavat shabdaswarupam pratipadika samyam syat. ಅತ್ರ ರಮಾ ಇತಿ ಧಾತುಃ ನಾಸ್ತಿ, ಪ್ರತ್ಯಯಃ ನಾಸ್ತಿ, ಕಿಂತು ಪ್ರತ್ಯಯಾಂತಂ ಅಸ್ತಿ. ಟಾಪ್ ಇತಿ ಪ್ರತ್ಯಯಃ ಪ್ರತ್ಯಯಾಂತತ್ವಂ ಅಸ್ತಿ. ತಸ್ಮಾತ್ ಅರ್ಥವಾದ ಧಾತುರ ಪ್ರತ್ಯಯ ಪ್ರಾತಿಪದಿಕಂ ಇತಿ ಸೂತ್ರೇಣ ಪ್ರಾತಿಪದಿಕ ಸಂಜ್ಞಾ ನ ಭವತಿ. ಸತ್ಯಂ ಕಿಲ? ಕೃತ್ತರ್ಥಿತ ಸಮಾಸಶ್ಚ ಇತಿ ಸೂತ್ರೇಣ ಭವತಿ ವಾ ಇತಿ ಚೇತ್ ತೇನಾಪಿ ನ ಭವತಿ. ಕೃದಂತಂ ತದ್ಧಿತಾಂತಂ ಸಮಾಸಶ್ಚೇದೇವ ತೇನ ಸೂತ್ರೇಣ. ಇದಂ ನ ಕೃದಂತಂ, ಟಾಪ್ ಇಸ್ ನಾಟ್ ಅ ಕೃತ್ ಪ್ರತ್ಯಯ, ಇಟ್ ಇಸ್ ನಾಟ್ ಅ ತದ್ಧಿತ ಪ್ರತ್ಯಯ, ಆ್ಯಂಡ್ ಆಬ್ವಿಯಸ್ಲಿ ಇಸ್ ಇಸ್ ನಾಟ್ ಅ ಸಮಾಸ. ಸೊ ಕೃತ್ತರ್ಥಿತ ಸಮಾಸ ಅಶ್ಚ ಇತ್ಯನೇನಾಪಿ ಪ್ರಾತಿಪದಿಕ ಸಂಜ್ಞಾ ನ ಭವತಿ. ಕಿಂ ಕರಣೀಯಂ ಇತಿ ಚೇತ್, ಏಕಂ ಪರಿಭಾಷಾ ವಿದ್ಯತೆ, ಪ್ರಾತಿಪದಿಕ ಗ್ರಹಣೆ ಲಿಂಗವಿಶಿಷ್ಟಸ್ಯಾಪಿ ಗ್ರಹಣಂ. ವೆರೆವರ್ ಯು ಆರ್ ಟೇಕಿಂಗ್ ಪ್ರಾತಿಪದಿಕಾಸ್, ಯು ಆಲ್ಸೋ ಕನ್ಸಿಡರ್ ಲಿಂಗವಿಶಿಷ್ಟಸ್ಯಾಪಿ ದೋಸ್ ವಿಚ್ ಆರ್ combined with the lingabodhaka pratyaya, which means if you have pratipadikatva for aja, you'll also have pratipadikatva for a word which is derived by adding a lingabodhaka pratyaya, which is a stree pratyaya to that aja, which is why you have aja also getting the pratipadika samya. Esha paribhasha pratipadika grahane linga visishtasya api grahanam tena taya paribhashaya ಏವ ಆವಂತಾನಾಂ ಯಂತಾನಾಂ. ದಟ್ ಇಸ್ ಹೌ ಮೋಸ್ಟ್ ಸ್ತ್ರೀ ಪ್ರತ್ಯಯಸ್ ಆರ್ ಟೇಕನ್ ಇನ್ ಟು ದ ಬ್ರಾಕೆಟ್ ಆಫ್ ಪ್ರಾತಿಪದಿಕಾಸ್. ದೇ ಡೂ ನಾಟ್ ಹ್ಯಾವ್ ಪ್ರಾತಿಪದಿಕ ಸಂಜ್ಞಾ ಬೈ ದೆಮ್ ಸೆಲ್ಸ್. ರಮಾ ಡಸ್ ನಾಟ್ ಹ್ಯಾವ್ ಪ್ರಾತಿಪದಿಕ ಸಂಜ್ಞಾ ಟೆಕ್ನಿಕಲಿ. ಕಿಂತು ಪ್ರಾತಿಪದಿಕ ಗ್ರಹಣೆ ಲಿಂಗವಿಶಿಷ್ಟಸ್ಯಾಪಿ ಗ್ರಹಣಂ ಇತಿ ಪರಿಭಾಷೆಯ ಸ್ವಾಧೀನಾಂ ಉತ್ಪತ್ತಿ ಭವತಿ. ರಮಾ ಇತ್ಯಸ್ಮಾತ್ ಪ್ರಥಮಾ ವಿಭಕ್ತೌ ಏಕವಚನೆ ವಿವಕ್ಷಿತೆ ಇದಾನೀಂ ಸ್ವೌಜ ಸಮೋಚ್ಛಷ್ಟಾಭ್ಯಾಂ ಭಿಸ್ ಇತ್ಯಾದಿನ ಸುಪ್ರತ್ಯಯಃ ಭವತಿ. ಸುಪ್ರತ್ಯಯೇ ಉಕಾರಸ್ಯ ಉಪದೇಶಯ ಜನುನಾಸಿಕ ಇತ್ ಇತಿ ಸಂಜ್ಞಾ ತಸ್ಯ ಲೋಪಃ. ರಮಾ ಸು ಇತ್ಯಸ್ತಿ ಹಲ್ನ್ಯಾಭ್ಯೋ ದೀರ್ಘಾತ್ ಸುತಿಸ್ಯ ಪ್ರಕ್ತಂ ಹಲ್. ಆಲ್ರೆಡಿ ಸೀನ್ ಹಲ್ ನೀ ಆಪ್ इत्येतेभ्यः परस्य सुप्रत्ययस्य लोपः भवति. हल्ज्ञाभ्यो दीर्घात् सूतीसि अपृक्तं हल्. अपृक्तं नाम किम्? वाट् इस् अपृक्त? Anybody remembers? Mithu Lakshmi. Ekal satyam. Apruktaha ekal pratyaha. Ekaha al. Nama ekaha varnaha. Samichinam. So aprakta ekal pratyaha, any pratyaya which has a single al or a single letter is called aprakta. Right? So now this is aprakta because there is only sakara. Ukarasya itsamyaya lope krute. Sakaraha eka eva varnaha asti ekal pratyaha. Tasmat halgnyabhyo dirgha sutisi apraktam hal. Ittenena apraktasya supratyasya lope rama iti rupam. So for all akarantra strilingas, the sup gets deleted by हल्ज्ञाभ्यो दीर्घात् सुतिस्य प्रक्तं हल्. सो रमा प्रथमाविभक्तौ द्विवचने औ प्रत्ययः. रमा औ किं भवेत्? कस्य प्राप्तिः अस्ति? ओके, आदौ वृद्धिरेचि इत्यस्य प्रवृत्तिः अस्ति. आकारात् अवर्णात् औकारे परे वृद्धिः एचि. आदेचि परे वृद्धिः एकादेशः स्यात्. सो वृद्धेः अपवादाः अदरिणि अपवादास्प्रवृद्धि. किं सूत्रं प्रवर्तेत अत्र? सूजि should we have vṛddhim bādhitvā kimapi sūtram? What do we do? Hari au kim kriyate? Okay. Muttu Lakshmi. Yes, that is not it. Come, we have not studied yet. But what is, if we have just Rama Au, Ado Vriddhehe Praptihe Asti. But other than Vriddhi, can any other sutra apply here, which we have studied so far? Prathama Yohu Purva Savarnaha. Akaha Prathama Dvitiya Yohu Achi Purva Savarna Dirkaha Eka Deshaha Syat. So wherever you have Hari and Au, Prathamayoh Purvasavarnaha ittanena Hari. Guru Au Guru. Sarvatra Prathamayoh Purvasavarnaha. Akaha Prathamadityayoh Vachi Purvasavarnadirkha Ekadeshaha Syat. So can we apply Purvasavarnadirkha here? Or is there any Nishedha? Purvasavarnadirkha Bhavativa. Rama au iti sthite purva savarna dirghah bhavati va. Nad ichi. So we have ad ichi pare. Avarnat ichi pare purva savarna dirghah nasyat is one sutra. Is there any other sutra for purva savarna dirghah nishedha? दीर्घात् जसि च. सत्यम्. सो दीर्घात् जसि इचि च परे पूर्वसवर्णदीर्घः न स्यात्. सो दीर्घात् जसि च इत्यनेन अत्र पूर्वसवर्णदीर्घः निषिध्यते. सो इवन् दो वी केन् अप्लै नादिचि हियर्, avarnad ichi pare. Still, that would apply only for Rama Au. It would not apply for Ramajas, because it does not give Pura Savarna Dirgha Nishvetha for Jas. Right? So, we use Dirghad Jasi Cha. Dirghat Jasi Ichi Cha Pare Pura Savarna Dirgha Nasyat. Ittyanena Pura Savarna Dirghasya Nishedha Kriyate. So, Idanim Kim Karaniyam Iti Prashne Sati. Nutanam Sutram Asti Atra. Aunga Apaha. Padadvayam Vidyate. Aungaha Apaha. Iti Padadvayam. Jasashi iti purvatana sutrat shi iti anuvartate angasya ityadhikarah astyeva avantat angat parasya aungah shi syat apaha iti panchami avantat angat iti angasya iti shashti panchamya viparinamyate avantat angat parasya aungah iti shashti aungah sthane shashti sthane yoga aungah sthane shi स्यात् शी इति आदेशः जसशी इत्यतः अनुवर्तते आवन्तात् अङ्गात् परस्य औङः शी स्यात् औङ् इति किम् इति प्रश्नः सु औ जस् अम् औट् कुत्रापि औङ् इति नास्ति ङकारस्य इत्वात् औङ् इति औकारविभक्तेः संज्ञा चेत् औङ् इस् अ इस् कन्वेन्शनलि यूस्ड् फार् औ द विभक्ति औ औकारविभक्ति विच् इस् सु औ जस् अण्ड् अम् औट् for au and out, which is the dvivachana. Prathama dvitiya dvivachana pratyayasya aung iti pracham samnya vidyate. Just like, what was that? You had aungo nastriya, where aung iti ta vibhaktehe samnya. Ta is the pratyaya, but it is indicated by aung. Similarly, atra au iti vibhaktehe, aung iti nirdesha asti. So, au pratyayasya sthane, shi iti adesho bhavati ityarthaha. रमा औ इत्यस्ति औकारस्य स्थाने शी इति आदेशे रमा शी शी इत्यत्र शकारस्य इत्संज्ञा विद्यते केन सूत्रेण केन सूत्रेण शकारस्य इत्संज्ञा भवति लशक्वतद्धिते सत्यम् लशकु अतद्धिते लकार शकार कवर्गाः प्रत्ययस्य आदौ सन्ति चेत् लशक्वतद्धिते इत्यनेन इत्संज्ञा भवति सो रमा ई लशक्वतद्धिते इति इत्संज्ञा तस्य लोपः इत्यनेन शकारलोपे रमा ई इदानीम् आद्गुणः अवर्णात् अचिपरे गुणः स्यात् इत्यनेन गुणे रमे रमा रमे शी आदेशः गुणः तावदेव सो नेक्स्ट् रमा जस् इत्यस्ति अत्रापि दीर्घाजसि च इत्यनेन पूर्वसवर्णदीर्घः निषिध्यते सो वी के नाट् अप्लै पूर्वसवर्णदीर्घ हियर् इन्स्टेड् रमा अस् इति स्थिते अकस्सवर्णे दीर्घः इत्यनेन सवर्णदीर्घः इट् इस् नाट् पूर्वसवर्णदीर्घ इट् इस् सवर्णदीर्घ बै अकस्सवर्णे दीर्घः अकारात् अवर्ण अकारे परे दीर्घः अकारः आदेशः सो रमास् इति भवति ससजुषोरुः इत्यनेन ऋत्वे खरवसानयोर्विसर्जनीयः इत्यनेन विसर्जनीये रमाः रमा रमे रमाः सो वाट् इस् द पायिण्ट् हियर् यु सेड् दी पूर्वसवर्णदीर्घ इस् प्रिवेण्टेड् बै दीर्घाद्यसि च बट् वि आर् स्टिल् डूयिङ्ग् सवर्णदीर्घ वेदर् वि डू पूर्वसवर्णदीर्घ हियर् or do savarna dirgha, the rupa is still the same. Pura savarna dirghe kritepi ramas ityeva bhavati, savarna dirghe kritepi ramas ityeva bhavati. Dirghat jasi chayati nishedhak kutaha, kimartham dirghat jasi pare pura savarna dirgha nishiddhaha. What is the point in the nishedha? Exactly. So you have in akara, you cannot see difference. The difference is not visible if it is an akaranta word. Kintu ikaranta asti chet. Gauri ityasti. Gauri jas ityatra. Purva savarna dirghe krite gaurihi iti bhavati.
किन्तु तस्मिन् निषिद्धे इको एणसि इत्यनेन एणादेशे गौर्यः इति भवति. गौरी गौर्यौ गौर्यः इति रूपमेव इष्यते, न तु गौरीः. अत एव जसि परे पूर्वसवर्णदीर्घः निषिध्यते. तस्य प्रयोजनम् आकारान्तेषु न ज्ञायते. वि के नाट् सी एनी विसिबल् डिफरेन्स् इन् आकारान्तास्, इट् इट् वर्क्स् इन् ईकारान्तास्, उकारान्तास् एट्सेट्रा. इन् आल् अदर् प्लेसस् इट् गिव्स् अ डिफरेन्स्, बट् सिन्स् इट् अप्लैस् हियर् आल्सो वी हेव् टु अप्लै. That is the general thing with sutras. Wherever the rules are satisfied, the sutra has to apply. Wherever the conditions are satisfied. So, atrapi dirgha jase chayati pura savarna dirghasya nishedhe, akasavarna dirgha hayatyanena savarna dirghe ramaha. Rama rame ramaha. Sambuddhau kim bhavati? He rama su ityasti. Idani, sambuddhau cha iti sutram. Paradvayam sambuddhau cha. बहुवचने झल्येत् इति सूत्रात् एत् इति अनुवर्तते. आङिचापः इति सूत्रात् आपः इति अनुवर्तते. आपः सम्बुद्धौ एत्. आपः इति षष्ठी विभक्तिः. आपः स्थाने एत् नाम एकारः आदेशः भवति सम्बुद्धौ परे. सो आबन्तस्य अङ्गस्य एकारः आदेशः भवति. अलोन्त्यस्य इत्यनेन अन्तादेशः. हेरमा सु इत्यस्ति. आकारस्य स्थाने एकारादेशे हे रमे स् सम्बुद्धौ च इत्यनेन एत्वम्. अनन्तरम् एङ् ह्रस्वात् सम्बुद्धेः इत्यनेन सम्बुद्धेः लोपः. एङ् अस्ति एकारः, एकारस्य लोपे हे रमे इति रूपं. रमा रमे रमाः हे रमे पुनः हे रमे. हे रमा औ इति स्थिते औङ् आपः इत्यनेन षि आदेशे गुणे हेरमे. हेरमे हेरमे हेरमाः. रमा अम् किं भवति अत्र? अमि पूर्वः. रैट्. सो इट् वुड् बि अमि पूर्वः एण्ड् यु हाव् रमाम्. Yes, Ravichandran ji, I have a question. हल्न्यादिलोपस्तु न परत्वतात् परत्वात् प्रतिपरोक्तत्वात् च एते कृते हल्न्यादिलोपस्य अप्राप्तेः. एङ् ह्रस्वात् इति लोपस्यैव परत्वेन न्यायत्वात् च. यु हेव् हे रमास् वेन् इट् इस् हे रमास् केन् वि डिलीट् सम्बुद्धि बै हल्न्याभ्यो दीर्घात् श्रुतिस्य प्रत्यं हल् इस् द क्वश्चन्. इस् एस् नो. Why not? Because you have Sambuddhau cha, which is specifically meant for Abantas. The Sutra Sambuddhau cha is both Parasutra and also specifically said for Abantas. So we have to apply that first. So what he says is, Paratvat Pratipadoktatvat cha. Paratvat nama halgyabhyo dirghatatisya praktam hal ityetad apekshaya paratvat. प्रतिपदोक्तत्वात्, प्रतिपदोक्तं नाम अत्र आपः इति उक्त्वा विशिष्टतया उक्तमस्ति. सम्बुद्धौ इति च. सो हि सेस् वेन् आबन्त इस् फालोड् बै सम्बुद्धि. सो यु हेव् टु अप्लै दिस् सूत्र. इफ् यु डु नाट् अप्लै दिस् सूत्र देन् द सूत्र वुड् इट् सेल्फ् बि वेस्ट्. सो बिकास् आफ् बोत् दोस् रीसन्स् वि अप्लै सम्बुद्धौ च फस्ट्. वन् सम्बुद्धौ च इस् अप्लैड् दट् इस् वन् एत्वा इस् डन् वि के नाट् डु हल्ज्ञाभ्यो दीर्घात् because there is no aap being heard, right? So, and eng hasvat sambuddhehe is also parasutra. So, because of all the reasons, it is nyaya. It is correct to do first etva and then lopa by eng hasvat sambuddhehe. Ha, ramam rame puraha aukaraha shiyadeshaha. Shasprateye pare kim bhavati? Rama as ityasthe. अत्र पूर्वसवर्णदीर्घस्य निषेधः नास्ति. दीर्घात् जसि च जसि परे एव पूर्वसवर्णदीर्घनिषेधः तस्मादत्र प्रथमयोः पूर्वसवर्णः इत्यनेन पूर्वसवर्णदीर्घः क्रियते रमास् इति भवति ऋत्वे विसर्गे रमाः सो एतत् स्मर्तव्यं रमाशब्दे आकारान्तशब्देषु यद्यपि जसि शसि च रूपं समानं रमाः रमाः तथापि जसि अकस्सवर्णदीर्घः इति सवर्णदीर्घः कर्तव्यः शसि प्रथमयोः पूर्वसवर्णः इत्यनेन पूर्वसवर्णदीर्घः करणीयः दट् इस् हौ इट् अप्लैस् द डिफरेन्स् इस् ओब्वियस् इन् ईकारान्तास् गौरी गौर्यौ गौर्यः गौरीं गौर्यौ गौरीः तत्र तु रूपं रूपे व्यत्ययः अस्ति इत्यतः सहजतया क्रियते अत्र तु विस्मर्यते ऐ मै सेल्फ् हव् फर्गोटन् दिस् मेनी टैम्स् ऑलवेज इफ यू गेट रमाः ईदर ऐ डू पूर्वसवर्णदीर्घ बोथ प्लेसेस् आर् सवर्णदीर्घ इन् बोथ प्लेसेस् विच इस् टेक्निकली राङ्ग् वेन् वी आर् स्टडीङ्ग् व्याकरण वी टु रिमेम्बर् दट् वेर् अ सूत्र वुड् अप्लै एण्ड् वेर् इट् वुड् नाट् रमां रमे रमाः स्त्रीत्वात् नत्वाभावः तस्माच्छसोनः पुंसि इत्यस्ति रामान् रामाशस् इत्यत्र पूर्वसवर्णदीर्घे कृते तस्माच्छसोनः पुंसि इति क्रियते एवमेव हरीन् गुरून् सर्वत्र शसि प्रत्यये शशिपरे पूर्वसवर्णदीर्घे कृते नत्वं क्रियते अत्र तु न भवति स्त्रीत्वात् नत्वाभावः तस्माच्छसोनः पुंसि इत्युच्यते विशिष्य तस्मात् स्त्रीलिङ्गे नत्वं नास्ति रमां रमे रमाः तृतीयैकवचने टा प्रत्ययः रमा आ इत्यस्ति इदानीं सूत्रमस्ति आङि चापः आङि च आपः इति परच्छेदः त्रीणि पदानि बहुवचने झल्येत् सूत्रक्रमः एवमस्ति बहुवचने झल्येत् आङि चापः सम्बुद्धौ च ओसि च आङि चापः सम्बुद्धौ च आल् द सूत्रास् डील् वित् एत्व बहुवचने झलि एत् रामेभ्यः झलादौ बहुवचने परे अदन्तस्य प्रातिपदिकस्य एकारो भवति इत्यनेन रामभ्यस् इति स्थिते एत्वे कृते रामेभ्यस् रामेभ्यः इति भवति ततः ओसि च ओसि परे अदन्तस्य एकारो भवति राम ओस् एकारे कृते रामे ओस् अयादेशे कृते रामयोः इति भवति ततः आङि चापः आपः नाम आबन्तस्य आङि च आङि ओसि च इत्यनेन ओसि इति अनुवर्तते सो आङि ओसि च परे आबन्तस्य अङ्गस्य एकारः स्यात् सम्बुद्धौ च सम्बुद्धौ अपि आबन्तस्य एकारो भवति इति सूत्रक्रमः सो इफ् यु नो द सूत्रक्रम आफ् अष्टाध्यायी इट्स् वेरी ईजी टु डिरैव् द मीनिङ्ग् ऐ हेव् 103 बहुवचने झल्येत् 104 ओसि च ओसि अपि एत्वं भवति आङि च आपः आबन्तस्य आङि As I said, Aang is again for Ta. Aangi Osicha Pare. Abantasya Angasya Ekaraha Syat. So there is an Ekara Desha when an Abanta is followed by Aang, which is Ta and Os. Aangi Osicha Pare, Abantasya Angasya Ekaraha Syat. Iti Sutram. Rama A Itisti, Ta Pratyaha. Ekara Deshe Krite, Rame A. Anantaram. एचोऽयवायावः इत्यनेन अयादेशः एकारस्य अचिपरे अयादेशे रमया रूपं रमया रमाभ्यां किमपि नास्ति रमाभ्यां रमाभिः ऋत्वविसर्गौ रमाभिः चतुर्थ्येकवचने रमा ए ङे प्रत्ययः नकारस्य दशक्वतद्धिते इत्यनेन इत्संज्ञा लोपः रमा ए इत्यस्ति इदानीं पुनः सूत्रं याडापः इति अग्रिमं सूत्रं याट् आपः इति छेदः याट् इति टित् आगमश्च घेर्ङिति इत्यतः ङिति इति अनुवर्तते आपः परस्य निद्वचनस्य याडागमः स्यात् आपः इति सूत्रे अस्ति पञ्चम्यन्तं श्रूयते आबन्तात् परस्य इत्यर्थः ङिद्वचनस्य यः प्रत्ययः ङित् भवति ङे ङसि ङस् ङि चत्वारः प्रत्ययाः सुप्सु ङितः तेषां प्रत्ययानां याट् इति आगमः भवति आगमश्चेत् कुत्र भवेत् याट् इति आगमः याट इति आगमस्य किं स्थानम्? आद्यन्तौ टकितौ टित् कितौ यस्य उक्तौ तस्य क्रमात् आद्यन्तावयवौ स्तः. If it is tit, it will be the adhyavayava, and if it is kit, it will be the antavayava. So, pratyayasya adau yat iti agamah bhavati. So, rama e ityasti, e iti nit, nitvat yat iti agame, rama ya e iti bhavati. Yadapaha iti yadagamah, adhyantav takitav ityanena adhyavayavah, rama ya e iti sthite riddhirechi. आकारस्य आदेचि परे वृद्धिः एकादेशः स्यात् इति वृद्धिसन्धौ रमायै इति रूपम्. चतुर्थेकवचने याडागमे कृते रमायै रमायै रमाभ्यां रमाभ्यः किमपि नास्ति. पुनः ङसि प्रत्ययः पञ्चमेकवचने रमा अस् इत्यस्ति. अयमपि ङित् ङित्वात् याडापः इति याडागमे रमा या असु भवति. या अ इत्येतयोः अकस्सवर्णे दीर्घः इत्यनेन सवर्णदीर्घे रमा यास् ऋत्वे विसर्गे रमायाः रमायाः रमाभ्यां रमाभ्यः. पुनः षष्ठेकवचने ङस् प्रत्ययेऽपि एवमेव प्रक्रिया रमायाः. रमा ओस् किं भवेत्? इदानीमेव उक्तं रमा ओस् आङि च आपः इत्यनेन आङि ओसि च आबन्धस्य एत्वं स्यात् इत्यनेन एत्वं भवति रमे ओस्. वै केन् वी नाट् अप्लै ओसि च हियर्? ओसि च दिस् इस् आल्सो अकार अन्त रैट् हा विषये अकार इट् आल्सो टेक्स् अकार. I should say it is not adanta. There is a difference. Adanta. Adanta nameva osicha ityanena etvam. Adanta means rasvakaranta. If you just say akaranta, this is also akaranta. So since it is not adanta, so there atobhisa is ityanena ataha iti anavattate. So there is rasvakarasyaiva bahuvachane jhalyet osicha iti sarvam. Tasmat atra osicha ityanena etvam nabhavati. रमे ओस् इति स्थिते आङि चापः इत्यनेन एत्वे रमे ओस्. एचोयवायावः इत्यनेन अयादेशः रमयोस् कृत्वविसर्गौ रमयोः रमायाः रमयोः रमा आम् अस्ति. षष्ठी बहुवचने Can you hear me? Hello? Yeah. So, Aam, Shashti Bahuvachane, Rama Aam, Ittyasti, Aam Pratyaha, Kim Bhavet? Correct. ह्रस्वनद्यापो नट् ह्रस्व नदी आप् इत्यस्ति. ह्रस्वान्तात् नद्यन्तात् आवन्ताच्च अङ्गात् आमः नुडागमः स्यात् इत्यनेन नुट् इति आगमः रमा न आम् इति भवति. इदानीं नामि इत्यनेन दीर्घः रमा नाम. डु यू नीड् टु अप्लै नामि हियर् बिकास् देर् इस् आलरेडी अ दीर्घ. यस् रविचन्द्रन् जी.
Sorry, what does he say? One second.
Yad, yad ityeva suvacham. He says instead of yad apaha, he could have, Panini says yat apaha, where there is a dirgha. So he says yat ityeva suvacham. Panini could have as well said yat instead of yat agama. He says he could have said yat, where ahrasva. He could have said rama ya asu. Because wherever we do that, we have then option for Savarna Dirgha. Yat is always for Abantas. So it is always, you have ya. And if it is a kara, you can always do Akasavarna Dirgha. So because of which, you can, we will still get the Rupa. Right? So he says, why yaditteva suvacham? Panini could have as well said yat instead of yat. That is his opinion. But we have to see if that would really work. So, so the question is, if he says yet, if you have Rama ya a or Rama ya as, we have ato gune. Ataha gune pare pararupam syat. Right? When there is a hrasvakara which is followed by guna letters, that is a or o, there is a pararupa. So that is why Panini did yat. So to prevent ato gune. But he says atogune will not apply here because of the yakara uchcharana samarthya. Since he is saying ya akara, the akara will remain as it is and it will not be converted to it will not, atogune will not apply here, which is not a very convincing logic. That is why bhashyakara or dikshitar has not taken that thing. When we are doing yat or yat, whatever is the karya which would apply later, we have to do. Right? Since you have Rama, Ya, A, Vridhirechi can apply, so we do Vridhirechi. If you have Rama, Ya, As, Akasavarna Dirgha will apply, so we do Akasavarna Dirgha. If it were yet, if Atogune would apply, we would have to do yet Atogune and we would not get the required forms. That is why Panini has done Yat. Yeah, this is Balamanoramakara's opinion that he could have said yet and still managed. Which is, well, we need not take everything that the Vyakhyakara says. We cannot take unless there is a pramana from the Bhashya or the Sutra itself. Okay. Coming back to Shashti Bahuvachana. Aam Prateye Hrasvanadhyapo Nute Ittenena Nudagame Nami Iti Dirghaha Kriyate Nami Pare Ajantasya Angasya Dirghahasya Kimartham Atra Nami Ittyasya Sutrasya Pravattihi Iti Prashnaha. Because there is already a Dirgha. In Rama Naam, to get Rama Naam, we need Nami. Ittinena Dirghaha Ishyate. Atra Kimartham Dirghaha. Dirghaha Astyeva Kila. Nami Ityasya Sutrasya Pravrittih Kutaha. Iti Cheta Satyam Paribhasha Vidyate Parjanyaval Lakshana Pravrittihi. Lakshanam Nama Shastram Shastrasya Pravrittihi Parjanyavat Bhavati. Parjanyaha Nama Meghaha. मेघः यथा वर्षति वर्षणे तस्य प्रश्नः न भवति अत्र जलम् अस्ति सो इट द क्लाउड विल नॉट थिंक ओ देयर इज वाटर हियर सो आई नीड नॉट रेन और इट विल नॉट गो टू अ डेजर्ट एंड से ओ देयर इज नो वाटर सो लेट मी गिव रेन्स पर्जन्यवत सो एज अ मेघ और एज अ क्लाउड वुड रेन और यू रिलीज इट्स वाटर वेदर देयर इज वाटर इररेस्पेक्टिव ऑफ वेदर देयर इज ऑलरेडी वाटर प्रेजेंट और नॉट इट वुड रेन इवन ओवर द seas or an ocean, or it would rain over the desert also. It is the swabhava of parjanya. Right? So similarly for a lakshana, that is for a shastra, if the conditions are satisfied, for any shastra, if the conditions for its application are satisfied, and if there is no overruling, such as if you have something like Vipratishedhe Parankaryam, etc., it's fine. So if there is nothing to overrule it, it will apply, whether it is required or not. The sutra will not think whether the karya is required or not, as long as the conditions are satisfied and as long as there is no other overruling sutra, the sutra has to apply. So here in Nami it says ajantasya angasya, there is ajantatva here, and there is nam. Nami pare ajantasya angasya dirghah syat. Since the conditions are satisfied, nami will apply. So even if it is dirgha, we still have to apply it, because the sutra will not stay quiet. This is a question. Muthulakshmi. It's not a question of nitya. That is any sutra, whether it is a vaikalpika sutra or nitya sutra. If the conditions are satisfied, it has to apply. That it applies in general for all sutras. Any sutra in Ashtadhyayi, if its conditions are satisfied, it would apply. Only case where it would not apply is there is something to overrule. There is an apavada or there is a parasutra or something. Sadagopanji. Right. Yeah. So wherever it is an agama, there is this tit, kit or mit, right? So wherever the that is the indication for agamas. Wherever you have tit, kit or mit, there is an agama. There are very rare cases where there is an agama which is not tit, kit or mit. Okay, there are some agamas which are very few, just one or two, which do not have this chitva, kitva, mitva, where we use the commentary, vyakhyanat kriyate. Kintu prayana sarvatra idameva. If it is tit, kit or mit, then we consider it as an agama. Okay. Any other questions? Okay. So, Rama Naam. Atkopangum Yavayepi Itenena Natve Ramanam Ramayaha Ramayoho Ramanam Saptami Ekavachane Rama Ni Itesti E Atrakim Bhavet. Remember any sutra? What is the Rupa? Rupam Kim Saptam Ekavachane. To Lakshmi ji. True. How? Where is the, we don't have an option for Akasa. Why? Right. Ye Ram Nadyam Nipyaha. Right, so Ramayam iti rupam. So ngehe am ni ityasya sthane am ityadesho bhavati. Nadi aap ni bhyaha nadyante bhyaha abante bhyaha ni ity shabdasya cha. So tena ngeram nadyam ni bhyaha ityanena am adeshaha. Rama am ityasthi amikrute yadapaha ityanena yadagamaha. So Rama ya am ityasthi idanim akasavarna dirghaha ityanena savarna dirghe ramayam iti rupam. So ramayam ramayohu rama os anichapaha ityanena etve rame os ayadeshe ramayohu rama su. So adesha pratyayohu iti shattvam kimartham na bhavati rama su ramesu iti sthite rameshu iti bhavati. Right, there is a adhikara. Right, in koho in kavargat parasya inah parasya kavargat parasya. So the letter preceding sakara should be either in or kavarga. Right, so since this is neither, for akara we do not have shatva. Ramasu itteva bhavati. Okay. So there is a question here. Can we, in Ramayam, can we do the Agama first and then do the substitution? That is, first to do Agama and then substitute it with the, substitute Ni with the Am. Okay. So I think no. If we do the Agama first, we will have to replace the entire thing. Since Agama is always taken as a Yaragamaha Tadguni Bhutaha. Agama is always taken as a part of whatever it is an Agama. So the Pratyaya would be Ya and E. Then maybe we'd have to replace the entire thing. Anyway, it is Parasutra. Nyeram Nadyam Nipyaha is Para, so we have to do it first. So first we will do Amadesha and then only Yadapaha will apply. This is 116 and 113. But there might also be other problems if we do not first to think. So first, the obvious answer is Paratvat Adav Amadeshaha Anantaram Yat Agamaha. Okay. Okay. So Ramashabdaha Akarantaha Strilingaha. I hope everybody knows the forms. Just to see what are the special features which we saw today. Kim kim vishishtam sutram bhavati abantanam. Augapaha ittenena shibhavaha bhavati. So this is not just for this, for all three. Rame he rame rame sarvatra prathama dvivachane augapaha ittenena shibhavaha bhavati. Rama e tisthite rame bhavati. Sambuddhau angi osicha etvam. So there are three cases where there is etva for the pratipadika. Right? One is sambuddhau, sambuddhau cha ityanena etvam. Angi osicha, angi chapaha iti sutrena etvam. Rame, rame a, ramaya, rame os, ramayos. Trishusthaleshu etvam bhavati. Nitsu pratyayeshu pareshu, yad apaha ityanena yad agamaha bhavati. Ramayai, ramayaha, ramayam. Iti. There are also other karyas which depend on abantas which we had seen earlier. Like halgyabhyo dirghat sutisya praktam hal ityanena rama ityatra sambuddhi lopaha. Sulopaha. Ramanam ityatra harsa nadyapo nut ityanena nudagamaha. Ramayam ityatra nyeram nadyam nibhyaha ityanena amadeshaha. So they are also things which depend on abantas, but they were already studied earlier. So the new sutras which is studied for Rama Shabda are Aungapaha, Sambuddhaucha, Angichapaha, and Yadapaha. Any questions? There are a couple of mistakes in the slide. I'm sorry. They should, Dvitiya Ekavachana should be Ramam and not Rama. And the Saungapaha applies for all three. So, any questions? I think we'll stop here. Shvaha anuvartayamaha. Sarvanama shabdaha. Sarva shabdaha. Tatrako visheshaha. Iti prashnaha. Okay. Enakshara samam nayam adhigamya maheshwarat kritnam vyakaranam proktan tasmai paninahe namaha. Manitrayan namaskritya taduk tishparibhav vijaya vayyakarana siddhanta kaumudihim virachyate.